సరే నమస్కారాః సిద్ధాంత కౌముద్యః అనంత పుల్లింగ ప్రకరణే ఏకోనవింశః పాఠః నవంబర్ మాసస్య చతుర్దశః దినాంకః ఏనం క్షరసమం నాహ్యం అధిగమ్యం హేశ్వరః కృష్ణం వ్యాకరణం ప్రోక్తం తస్మై పాణినయే నమః వాక్యకారం వరదతిం భాష్యకారం పతంజలిం పాణినిం సూత్రకారం చ ప్రణతోస్తుం నిత్రయం మునిత్రయం నమస్కృత్య తదుక్తీశ్వరి భాస్విత వైయాకరణ సిద్ధాంత కౌమురీయం దరిశ్యతే. అష్టాధ్యాయీ పాఠం కుర్మః. చెందండి, రీడ్ ద ఫస్ట్ 40 సూత్రం అండ్ టీచ్ ఫ్రమ్ ఆఫ్టర్ దట్. అనంత పుల్లింగ ప్రకరణే దకారాంతేషు పుల్లింగేషు అస్మద్యుష్మ శబ్దం అధీయేతే. ద్వయో శబ్దయో సమానీ ప్రక్రియ ఆదౌ సుప్రత్యయ భవతి యుష్మద్ అథవా అస్మద్ శబ్దాత్ సుప్రత్యయస్య నే ప్రథమయోరం నే ఇత్యస్య తథయ ప్రథమా ద్వితీయ విభక్త్యోః అమ్ ఇత్యాదేశః భవతి. ప్రత్యయస్య స్థానే అమాదేశః క్రియతే. తతః స్వాహౌ సౌ ఇత్యనేన యుష్మద్ అస్మద్ ఇత్యేతయోః మపర్యంతస్య స్వ అహ ఇతి ఆదేశో క్రియతే. మకార పర్యంతం యదస్తి అద్ ఇత్యేతద్ అతిరిచ్య పూర్వభాగస్య స్వ ఇత్యాదేశః స్వ అద్ అమ్ అతో గుణే ఇత్యనేన గుణే కృతే స్వద్ అమ్ శేషే లోపః యత్ర ఆత్మం యత్వం వా న భవతి తాదృశ్యా విభక్తౌ పరతః శేషే శేషస్య లోపః తత్ర ద్వేధా సూత్రార్థ కల్పితః. శేషే విభక్తౌ పరతః అంత్యస్య లోపః ఇత్యేకః పక్షః తాదృశ్య విభక్తో పరతః శేషస్య లోపః అర్థాత్ అద్ ఇత్యస్య మపర్యంతాత్ శేషస్య లోపః అద్ ఇత్యస్య లోపః ఇత్య పరస్పక్షః. సిద్ధాంతే శేషస్య లోపః ఇత్యేవ అంగీక్రియతే. ఇట్ స్టిల్ బోత్ పక్షస్ ఆర్ అక్సెప్టెడ్. దేర్ ఆర్ పీపుల్ హూ ఆర్ ఆర్గ్యూ ఫర్ ద ఫస్ట్ పక్ష వేర్ ఇట్ ఇస్ అంత్య లోప ఇట్ ఇస్ ఓన్లీ దకార లీజిస్ and there are people who substantiate the paksha where the ad is deleted. Okay, siddhante to ad itseva lopaha itseva lopaha is sikrasya nirthamaha. We will treat everywhere sheshe lopaha is silopa, it is ad itseva lopaha. So ad if you delete you have su am and svam. So we also saw why this was necessary. Sheshe lopaha ityanena antya lope krute ko doshaha iti chete sva am iti chete akarantatvata adadvidashta ityanena sap pratyaya prapnuyat. There might be the prasakti of doing sap. Okay, there are other ways of preventing sap but they are not very satisfactory. So we do atogune because of antaranga, we do it first. అనంతరం ఏకాదేశస్య పరాధివద్భావేన అద్ ఇత్యస్య లోపః శేషె లోపః స్వ అమ్ త్వం ఇది ప్రథమైకవచనే రూపం. ఏవం అస్మద్శబ్దస్య అహాదేశే కృతే అహం ఇది రూపం. పరమత్వం పరమాహం అతిత్వం అత్యహం పరమశ్చాసౌత్వం చ ఏం పరమస్థ అహం చ ఇది యదా కర్మధారయ సమాసః. కర్మధారయ సమాసే ఈశ్వరస్య శబ్దయోః ప్రాధాన్యం తదా స్వాహౌసౌ ఇత్యాదేశః భవత్యేవ. ఏవమేవ గౌణత్వేపి స్వామతిక్రాంతః వామతిక్రాంతః ఇది విగ్రహే ఈశ్వరస్య శబ్దయోః గౌణత్వేపి స్వా ఆదేశః అహం ఆదేశః ఏవమే ప్రథమయోరం సర్వాణి కార్యాణి భవంతి. సో ఇఫ్ యు లుక్ ఎట్ ఇట్ sutra numbers here in this slide, but as we go on, you can see that the carriers for Vishnu and Rasna Sabda, they happen in three different things you have to consider. First is, there could be an Adesha for the Pratyaya, which is like near Dasmayoram, where the Pratyaya is being replaced by Am. And then there would be one Adesha for the Maparyantasya Sthane Kinchir Adeshaha, as in Svahausau. And there could be some action which is happening for the third part, the part after Ma, that is Adu. So it could either be deleted or it could be replaced by Atva or Yatva. Okay, so there are, like, you can take it as there are three parts in this set, and there are three different karyas which are happening. And Panini gives them all, the Pratyayadeshas are all given in the first part of the seventh chapter. Saptamadhyayasya prathama pade Pratyayasya adeshaha santi. Ye prathamayoram, shatona, bhyasobhyam, ityadi ritya. Pratyayasya ye adeshaha, ye saptamadhyayasya prathama pade santi. Annyat karyadvayam, arthat sheshasya, ishvarasvador anadeshe, iti यह आदेश आत्म यत्व तथा लोप सत सप्तमाध्याय से द्वितीय पादे अस्ति अपर्यंत अधिकार अभी सप्तमाध्याय से द्वितीय पादे अस्ति सेकेंड अध्याय ऑफ द सेवेंथ चैप्टर पाणिनि फर्स्ट टेल व्हाट आर द आदेशस फॉर द प्रकृति देयर इज वन आत्व देयर आकार इज द अंतादेश देयर इज यत्व देयर यकार कुड बी द अंतादेश और देयर कुड बी डिलीशन शेषे लोप दीज आर टोल्ड फर्स्ट. And immediately he starts with Maparyantasya and he gives Adeshas which are for Maparyanta till replacements for the first part of Prakriti. So finally all the karyas happen to be in the seventh chapter. Sarvani karyani saptamadhyaye santi sarvesham angatvam asti angadhikaraha shashadhyayasya chaturthapadasya prathama sutranarabha सप्तमाध्यायस्य समाप्ति पर्यन्तम् अङ्गाधिकारः अस्ति. अङ्गाधिकारे पदाङ्गाधिकारे तस्य च सदन्तस्य च. सो वट् एवर् कार्यस् आर् टोल्ड् इन् पदाधिकार एण्ड् इन् अङ्गाधिकार दे अप्लै फार् दट् वर्ड् एण्ड् आल्सो फार् सदन्त. सो इन् आल् द कार्यस् विच् आर् यूस् इन् डिरिवेशन् आफ् अहम् एण्ड् स्वम् इट् मे बि द प्रत्ययादेश आर् द आदेश फार् प्रकृति द फस्ट् पार्ट् आर् द सेकेण्ड् पार्ट् आफ् द प्रकृति. All of them are Anga Karya. Sarvesha Vangatvata Taranta Vithi Bhavati Taranga Adhikare Tasyasa Taranta Sisa Iti Paribhasa Ravanasirati Etani Sutrani Pravartante Tadantaha Taranta Vithi Nama Tatra Nasyate Ravanasya Bhavativa Pradhanyasya. As long as it is a general Taranta Vithi, it has to apply for both, in case of both Pradhanya and in case of Ravanasa. अप्रवृत्तौ मानाभावात् यत्र यत्र गौणे किञ्चित् तदन्त कार्यं न प्रवर्तते इति उच्यते तत्र किञ्चित् प्रमाणं भवति. यु शुड् आल्वेज् नोटिस् दट् द जनरल् केस् इस् इन् बोत् प्राधान्य एण्ड् गौण द कार्य वुड् अप्ले. इफ् देर् आर् स्पेशल् केसेस् वेर् यु आर् मेन्शनिङ्ग् गौणे न प्रवर्तते दे शुड् बि सम् रीसन् ऐ मीन् सम् रीसन् सम् प्रमाण टु से दट् दट् पर्टिक्युलर् कार्य विल् नाट् अप्लै इन् Gauna, whenever the pada is Gauna. Okay, that requires special pramana. But saying that it applies in Gauna does not require a pramana. In general, or by default, any tadanta vidhi, as in anything told in padadhikara or angadhikara, should apply in for tadanta, whether it is pradhanya or Gauna. If there are cases where you say that it will apply only in Pradhanya and not in Gauna, you will have to give some special pramana. It might be a prayoga or it might be a vartika or it might be bhashya or something. Okay? But in this case, there is no such thing. Mana bhava, there is no pramana to say that the karya will not apply in Gauna. And that is why, whether it is Pradhanya or Gauna, you are having all karya. Paramatvam, Paramaham, Atitvam, Atyaham. Suprateha, Saavtaha, Aupratyaya, Kim Bhavati, Iti Krishnaha. Yuvavau, Jivatane, इति अग्रिमं सूत्रं पदद्वयं विद्यते युव आवौ द्विवचने अष्टनः विभक्तौ इति सूत्रात् विभक्तौ इति अनुवर्तते द्विवचने विभक्तौ द्विवचने विभक्तौ परतः युष्मदस्मदोरनादेशे इत्यतः युष्मदस्मदोः इति अनुवर्तते अपर्यन्तस्य अधिकारः अस्ति कोऽर्थः द्वयोरुक्तौ यत्र द्वित्वम् उच्यते so wherever there is a dvitva being told युष्मदस्मदोः युव आव इत्येतौ भवतः मानाभावात् इत्यत्र मानस्य अभावात् मानं नाम प्रमाणं तस्य अभावात् मान अभावात् द्वयोरुक्तौ ईश्वरत्वदोः अपर्यन्तस्य युवावौ स्तः विभक्तौ परतः विभक्ति अण्ड् इट् इस् स्पेलिङ्ग् टु द्वयोः उक्तौ त्रिवचने परतः ईश्वरस्वदोः अपर्यन्तस्य युवावौ स्तः युव आव इत्येतौ स्तः दट् इस् वन् कार्य फार् द्विवचन द्विवचन यु केन् रिप्लेस् the Vapadhyanta part of it with Yuva and Ava. Okay. So, Drivachana for now is Drivachana. Simple, dual. I mean, there is a reason why he does not say Drivachana Vibhakto Parataha. He says Dvayohu Uktau. There is a difference, but for now, let us treat it as dual. Wherever it is Drivachana, the simple sense. Okay. So, we'll see the later, the finer aspects of it. ततः प्रथमानाश्च द्विवचने भाषायाम् इति सूत्रम् चत्वारि पदानि सन्ति प्रथमायाः च द्विवचने भाषायाम् इति सो अष्टनाविभक्तौ इति विभक्तौ इति न वर्तते युष्मदस्मदोः इत्यपि न वर्तते इह नाम प्रथमायाः द्विवचने प्रथमा विभक्तौ द्विवचने युष्मदस्मदोः आकारः अन्तादेशः स्यात् आ इति अनुवर्तते आकारादेशः विधीयते युष्मदण्डस्मद् प्रकृति विल् गेट् आकार अस् द अन्तादेश आकार इस् आदेश बीङ्ग् टोल्ड् अनन्त्यस्य इत्यनेन अन्त्यस्य आदेशः वाट् वि डिड् इन् द प्रीवियस् सूत्र युवौ द्विवचने इत्यनेन अपर्यन्तस्य युवादेशः अवादेशो वर्तः इदानीम् अन्त्यस्य स्थाने आकारादेशो भवति युष्मद् औ अस्मद् औ इत्यस्ति प्रकृतेः ये प्रथमयोरम् आलरेडी स्टडी प्रथमयोः इत्यनेन प्रथमा द्वितीया विभक्त्योः सर्वे प्रत्ययाः स्वीक्रियन्ते आल् सिक्स् ओके सो औ इस् अगेन् रिप्लेस्ड् बै अम् युष्मद् अम् अस्मद् अम् युवावौ द्विवचने इत्यनेन अपर्यन्तस्य स्थाने युव आव इति आदेशः युव अद् अम् आव अद् अम् इदानीं प्रथमायाश्च द्विवचने भाषायाम् इत्यनेन अन्त्यस्य नाम दकारस्य स्थाने आकारः आदेशः भवति द् इस् रिप्लेस्ड् बै आ सो हेव् युव अ एण्ड् अम् सिमिलर्ली आव अ आ एण्ड् अम् अतोगुणे केन् बि डन् एनी टैम् सो द फस्ट् टु अकार यु हेव् अपरान्तादकारात् गुणे परतः पररूपम् So this is replaced by a yuva, a, am. Tataha akasavarne dirkhaha, ityanena savarna dirkhe, yuva, am. Amipurvaha, itipurvadupe, yuvam, evam, avam. So everywhere what you have to remember in Yushmada Rasmada is these three. What are the three things happening? What happens to Pratyaya, what happens to the first part of Prakriti, what happens to the second part? Okay. So, Sheshe Lopaha will not happen here because the Sheshe itself means Atva Yatva Nimittetara Vibhaktav. Wherever there is neither Atva nor Yatva, there is Lopa. So, there are three options for the second part. There can be Atva, there can be Yatva, there can be Lopa. For the first part, there are different Adeshas which are told. Similarly, for the Pratyaya, there are different Adeshas told. Okay. सो इदानीं ये प्रथमयोरम् इति प्रकृतेः अमादेशः युवावौ द्विवचने इति अपर्यन्तस्य युवा आवादेशः प्रथमायाश्च द्विवचने भाषायाम् इति अन्त्यस्य आत्मम् इति त्रीणि कार्याणि सन्ति. अनन्तरं सन्धौ कृते युवाम् आवाम् इति रूपद्वयम् औञ् इत्येव सुवचनम् इति दीक्षिताः. सो पाणिनि वित् ग्रेट् एफर्ट् इस् सेयिङ्ग् प्रथमायाश्च द्विवचने भाषायाम् वै पाणिनि सो मच् इट्स् अ क्वेश्चन्. प्रथमायाः द्विवचने इत्युक्ते किं? द्वितीयायाः द्विवचने न भवति वा? प्रथमा द्विवचन इस् औ अण्ड् द्वितीया द्विवचन इस् आल्सो औ. सो वेन् हि टेक् सो मच् एफर्ट् टु से प्रथमायाः द्विवचने, डस् इट् मीन् द्वितीयायाः द्विवचने न भवति? बट् दट् इस् नाट् द केस् बिकास् द सूत्रक्रम आफ् पाणिनि इस् अष्टनाविभक्तौ रायोहलि युष्मदस्मदोर् अनादेशे द्वितीयायां च प्रथमायाश्च द्विवचने भाषायाम्. So what happened is, before he is saying Prathamayasya Dvivachane Bhashayam, he has told a sutra called Dvitiyayam Cha. It says in the entire Dvitiya Vibhakti, you will have Atva. Okay? Then he wanted to add this Prathamayasya Dvivachana, so he says Prathamayasya Dvivachane Bhashayam. So Rikshita says, he, for Laghava, to keep the sutra short, he could simply have said Aungi. This means Aukara Vibhaktau, whether it is Prathama or Dvitiya. उभयत्र इष्यत एव. प्रथमाद्विवचने अपि आत्मनिष्यते, द्वितीयाद्विवचने अपि आत्मनिष्यते. सो इन्स्टेड् आफ् पुट्टिङ्ग् द सूत्र सो लाङ्ग् सेयिङ्ग् प्रथमायाः द्विवचने भाषायां, हि कुड् हव् सेड् औनि भाषायां. भाषायाम् ओब्वियस्ली रेफर्स् टु इट् इस् क्लासिकल् संस्कृत् अण्ड् नाट् इन् वेदास्. सो औनि इत्येव सुवचनम्. इट् वुड् हेव् बीन् करेक्ट् जस्ट् टु से औनि, बिकास् इट् अप्लैस् इन् औकार विभक्ति, whether it is prathama or dvitiya. So if he could have made it short. There are cases, even if we say alpakshanam asandigdham taravad vishato mukham is sutra lakshana, there are cases where Rikshita feels the sutra could have been phrased better. So he says ityeva suvatam. Bhashayam kim? Bhashayam eva प्रथमायस्य द्विवचने इति आत्मस्य प्रवृत्तिः इति किमर्थम्? युवं वस्त्राणि वेदे प्रयोगः युवम् इत्यस्य, युवाम् इत्यस्य स्थाने युवम् इति प्रयोगः कथं भवति? युवावौ द्विवचने इत्यनेन स्वपर्यन्तस्य युवादेशः, एकथमयोरम् इति अमादेशः. ऐ हव् युवद् अम् युवद् अम् इत्युच्यते. देर् इस् नो आत्म. Atva in the Vedas is only for Dvitiya Vibhakti. In Prathama Vibhakti Ekavachana there is no Atva. Prathama Vibhakti Dvivachana there is no Atva. Atvam yadi na bhavati tadhi sheshe lopaha ityanena adu ityasya lope yuvam vastrani. You have a form like yuvam instead of yuvam in the Vedas. So that is why he adds the adjective bhashayam to Prathamayaha Dvivachane. मपर्यन्तस्य किम्? नौ दस् अ क्वेश्चन् डैरेक्ट्ली आन् द मपर्यन्ताधिकार, नाट् जस्ट् इन् दिस् सूत्र. मपर्यन्तस्य इस् एन् अधिकार विच् अप्लैस् टु मेनि सूत्र. सो यु सा स्वाहंसौ, यु सा युवावौ द्विवचने, अगेन् यु विल् सी यूयवयौ जसि अण्ड् तेमया एकवचनस्य स्वामो स्वामो द्वितीयायाः अण्ड् सो आन्. सो देर् आर् मेनि sutra which come under this Maparyanta Adhikara, where the Adesha is only till Makara and not for the entire Prakriti. What is the requirement of this Adesha? It's the Prashna. Kimartham Prashnasya Kaha Ashayaha Yushmad Am Ekrati. You have now said this is Dvivachana. औकारः अस्ति, औकारस्य अमादेशस्ततः एकस्मयोरम् युष्मद् अम् इत्यस्ति. युवावद्विवचने इत्यनेन युवादेशः अवादेशश्च करणीयः. सो हि सेस् वै डु यु नीड् टु हाव् द मपर्यन्ताधिकार? लेट् अस् रिप्लेस् द एण्टैर् प्रकृति वित् वाट् एवर् इस् द आदेश. ओके, रिमूव् मपर्यन्ताधिकार विच् देन् वाट् विल् इट् मीन्? अनेकाल्पात् सर्वादेशः. ओके, यु रिप्लेस् द एण्टैर् युष्मद् वित् वाट् एवर् इस् द आदेश, इट् इस् युव. पूर्वस्य एव युवादेशं कुर्मः. युवादेशे कृते antyasya atvam bhavatu. You have yuva am. If you represent the Rishmad with yuva, you get yuva am. Now, prathamayasta divacane bhashaya mityanena antyasya akaradesha bhavati. So you get yuva am. Instead of yuva am, you get yuva am. Okay, so let's see. Yuva o divacane ityanena purnasya adeshe krute, you have yuva am. इदानीम् आत्मे कृते युवा अम् इति भवति. अभिपूर्वः इत्यनेन पूर्वरूपे कृते युवां रूपं सिद्धम्. वेदर् यु रिप्लेस् मपर्यन्त वित् युवा आर् रिप्लेस् द एण्टैर् युवा, यु आर् गेटिङ्ग् द प्रापर् फार्म्. किमर्थं मपर्यन्ताधिकारः? किं प्रयोजनम्? वाट् इस् द यूस् आफ् रिस्ट्रिक्टिङ्ग् द आदेश टु मपर्यन्त इस् हिस् क्वेश्चन्. साकस्कस्य माभूत् युवकाम् आवकाम् इति उत्तरम्. यदा अकच् प्रत्ययः क्रियते, अकच् इत्यनेन अव्ययसर्वनाम्नाम् अकच् प्राप्तेः इति सूत्रम्. अव्ययानां सर्वनामपदानां च स्वार्थे अकच् भवति, तेः प्राक्. सर्व इत्युक्तं सर्वक, अर्थस्तु समानः. एवमेव युष्मद् इत्यस्य चेत् युष्मकद् इति भवति. अकच् प्रत्ययः तेः प्राक् भवति. युष्म अक् अद् युष्मकद् अस्मकद् इति भवति. अत्र युष्मकद् अम् इत्युच्यते मपर्यन्तस्य एव आदेशः इष्यते. यु डि नाट् वाण्ट् द एण्टैर् थिङ्ग् टु बि रिप्लेस्. इफ् यु रिप्लेस् द एण्टैर् थिङ्ग्, वाट् वुड् बि द फार्म्? अगेन् यु हव् युवा अम् आत्रे पूर्वरूपे कृते युवाम् इत्येव भवेत्. इवन् यु सकस् यु गेट् द फार्म् एस् युवाम् इफ् यु रिप्लेस् द एण्टैर् प्रकृति. एतदवत् इफ् यु रिप्लेस् द only maparyanta with yuva, so you have yuva akad am. Okay, so you have yuva kad am atre kate yuvaka a am. So you sarana dekha before, you get yuvakam. So you should hear the kakara in akad. Whenever it is akadanta, you would like to hear the kakara in the form. If you replace the entire prakruti with yuva, then even in akadanta you would not hear the form, you would hear only yuvam. So sakatskasya adesha neshyate, akatskahitasya ete adeshaha yuva vaya athava yuva ava ete adeshaha neshyate tadartham maparyantadhikaraha. So that is the first use or the purpose of maparyantadhikara, is to prevent these adeshas from taking away the kakara of akatsh. That is one. स्वयामया इत्यत्र स्याम्या इति मा भूत् इति अपरं प्रयोजनं पश्यन्ति दीक्षिताः. सो हि इस् ट्रीटिङ्ग् इस् गिविङ्ग् प्रयोजन फार् मपर्यन्ताधिकार, नाट् ओन्ली फार् दिस् पर्टिक्युलर् सूत्र, नाट् जस्ट् फार् युवावो दिवसने, बट् इन् जनरल् देर् आर् मेनि आदेशस् विच् आर् कमिङ्ग् अण्डर् मपर्यन्ताधिकार. सो वाट् वुड् हेपन् इफ् all those adeshas were for the entire prakriti instead of mapadyanta. So the first thing is for akach, whenever we do akach for yushmadasvat, the adesha should not take away the akach, it should apply only for the mapadyanta, is the first purpose. So the second purpose is svaya maya, tritiya vibhakta ekavachane svaya iti rupam maya iti rupam tat na siddhati. He says even though you can do yuvam avam using adesha for the entire prakriti, you cannot derive svaya and maya. Why? You have to see. So then there is a question. What is sanvadhya paritanyaya? Sanvadhya paritaha tadgrahanena drashyante. When you have akach, question is yushmaka dasmaka, it is not yushmad and dasmad. Going to the previous case, you are saying when you have akach, you do not want it for the entire thing, you want it only for mapadyanta. But all this logic will hold when the adesha will apply for yushmakad or asmakad. How will it apply is the question, because sarvatra yushmad asmadohu iti uchyate. How is yushmakad the same as yushmad? Sanmadhya paditaha tadgrahanena drashyante. Anything which comes in between, if there is an agama in between, it is taken, treated as the original. It means akach which falls in between yushmakad is also treated as yushmad. That is why even the akadanta you treat it as Yushmad and Asmad, and not as separate. Ateva tatra sakaskasyati adeshasi pravrutti hi bhavati. Sautra satyam vaparyantasyeva adesha haishyante natu sarvasya. Prayamaya atyatra kim bhavati. So we just giving a preview of what happens in Tritiya Vibhakti. So as we go into Tritiya Vibhakti, we will see it. Tritiya Vibhakti swama eka vachana yachanena mokariyantasya swa mo iti adesha bhavati. So in eka vachana, the mokariyanta is replaced by swa or ma in case of asmat. So swa adu a. Yoti itjanena bakarasya sthane yakaradesha bhavati. Swa ayu a itjasi. Atava guna yachanena pararupa itjasi swaya. This is how you are deriving the form in Tritiya eka vachana. Swaya maya. Replacing makaryanta with sva, you are replacing the antya with ya, and there is no adesha for prasuti, or prasaya. Now, if there is no makaryanta for samaveka vachane, samaveka vachane ki sutra yadi makaryanta adhikaraha nasti, tada kim bhavati? The entire yushmad would be replaced by sva, right? Sorry. Yushmad ityasya sthane tva ityadeshaha. Vadeshe krute, you have to apply yochi. Yochi is again for the antya, for the last letter. Antyaha varnaha ki akaraha. Tva ityatraha akaraha. Now this adu is not there, you just have tva a. Now the akara of tva is replaced by ya. It becomes tvu yu. Tvya ityaha rupam syat. That is tvaya. You would not hear the akara. Svayamaya ityatra, svayamya iti maabhut. Yadi vaparyantadhi karaha nasti, sahi tritiyeka vachane rupam bhavet, svayamya iti, ishyate svayamaya. Tadartham vaparyantadhi karaha avashyakaha. So you need vaparyantasya adhikara. Again, ivakabhyam avakabhyam iti kana siddhet. Again, he gives another prayojana of akats where in dvivachana. In Tritiya Vibhakti Panchami Dvivachana. No, the same thing. Yuvavo Dvivachane. If you do the Adesha for the entire Yushmad or Asmad, Katarasya Shravanam Nasyat. The same thing. When you have Akash, you would not hear the Katara. If you had to replace the entire Katrati, Akashanto Katarasya Shravanam Nasyat. You would not get Yuvakabhyam. You would get Yuvabhyam, Avabhyam, even in case of Akash. So because of these things, Vaparyantadhikaraha ishyate. Okay, any questions so far? Yes, yes. We'll do that later and in the correct prakriya. Atogune usually comes first. So again, there is a logic where it makes a difference, we take it into consideration. Otherwise, we try to do the adesha, that's all. All that comes into consideration where it makes a difference, so it's correct. What you said is correct. Atogune should come first and then the adesha. For ease of understanding, there are some cases where I put the adeshas first and then the sandhi. Okay. So everywhere atogune comes first is the correct thing. Sarvatra atogune sikrutva anantaram anyani karyani bhavanti. Into kadachit vyakhyane tathaiva. Just for clarity, we sometimes give all the adeshas together and then go into the sandhi part of it, or the varnakarya part. Okay, Rani, just vrtteha, prathama jiva bahuvachane, yuyavayau jasi, padadrayam yuyavaya ityadeshaha, ishmadasmadohu mapariyantasya, again this comes under mapariyantadhikara, pashtam, very simple. Ishmadasmadoho maparyantasya jasvattaye pare yuya vaya ityadesha bhavataha. So ishmad asmad asyasyasi ये प्रथमयोरम इत्यनेन प्रत्ययस्य अमादेशः इयवयौ जति इत्यनेन मपर्यन्तस्य यूय वय इत्यादेशः अतो गुणे दूत आदेशे जनरली डू अतो गुणे सो यू हैव यूयद अम एंड वयद अम इदानीं शेषे लोपः तो यत्र आत्मं यत्वं वा न भवति तत्र लोपः तो फाइनली फाइंड आउट वेयर यू हैव आत्मा एंड यत्व एंड देन डिसाइड वेयर इट इज शेषे लोपः अत्र आत्मस्य यत्व निमित्तं नास्ति अतः शेषे लोपः इत्यनेन लोपः क्रियते अद् इत्यस्य लोपे यूय अम वय अम इत्यस्य यूयम वयम इति रूपे सो दिस इज अज्यूमिंग शेषे लोपः इज त्रिलोपः So even if you say it is only Antya Lopa, you remove the Dakara, and then there is Amipurvaha again. So it is Yuyam Vayam. The Rupa will not change. Sheshe Lopaha, Tilopaha iti Siddhantaha. Yuyam, Yuyam, Vayam, Vayam. So the Prasaya gets Am, Mapariyanta. The first part of Prakriti gets Yuyam, and there is Lopa in the second part. From Yuvam, Yuyam. Three forms that are as different from each other as it is possible to be. Parama Yuyam, Parama Vayam, Ati Yuyam, Ati Vayam. So this Adesha again, Yuyam, Yuyasi and all these things will occur even in Samasa, that is Tadanta, whether it is Pradhanya or Gauna. Okay. So Parama Yuyam, Parama Vayam, Ati Yuyam, Ati Vayam. So you should notice where he gives this Ananta Rupa and where he does not give. He gave for Paramatvam Paramaham, Atitvam Atyaham. He is giving for Bahuvachana, he is not giving for Dvivachana. Which means there is a snag there. Okay. So we will see later. That is where this question of Dvivachana and all comes in. So in Dvivachana it will not be the same form. Okay. But in Ekavachana, Bahuvachana it is the same. It's giving now, but again later, as soon as we finish Ishmat and Asmat, we will take up Tadantas. What happens in Pradhanya, what happens in Gauna, which is a huge topic by itself. For now, we will concentrate on the forms of simple Shabda. Is there a question? What's the question? If it is, that is what I said. Sheshe Lopaha, there are two pakshas. One paksha says Sheshe Lopaha is only Antya Lopa. If you take Sheshe Lopaha as Antya Lopa, it would be Yuya Am, you would have to do Amipurvaha. But Sheshe Lopaha, it is Tilopaha. We saw that discussion where there could be, if you have this Akara, there could be Tap. Okay, so to prevent that, we decided Sheshe Lopaha is Tiloka. It removes whatever is left out of Maparyanta. It is Adu. So if you remove Adu, it becomes Yuyu Am. Yeah, even Neelam. There is no Akara. तो आनंद तनंत विधि गौणे प्राधान्य से प्रवर्तित है नाउ हियर इज अनदर क्वेश्चन यह शेषे लोपः अंत्य लोपः इति पक्षे सो एज आई टोल्ड जस्ट नाउ शेषे लोपः अंत्य लोपः इति एकः पक्षः तिलोपः इति अपरः पक्षः उभयत्र रूपाणि साधनीयानि सो वी शुड ट्राई टू डिराइव द करेक्ट फॉर्म इन बोथ पक्षस बिकॉज इट इज नॉट वेरी क्लियर विच पक्ष इज करेक्ट और विच इज रॉन्ग Okay. So even though we decided that it is better to have Tilopa, it is true. In all forms it is better to have it as Tilopa. But still the Antilopa Paksha cannot be completely rejected. Okay. There are reasons, various reasons why Antilopa is also considered by some people. So Dikshita tries to derive the correct form in both Pakshas. Now, Sheshe Lopaha, Antya Lopaha iti Pakshe. There is a problem which would arise if you consider Sheshe Lopa as Antya Lopa. किं भवति यूयद् अम् इत्यस्ति यूयादेशः कृतः यूयवयोजसि इति यूयादेशः कृतः अतो गुणे इति गुणः कृतः यूयद् अम् इत्यस्ति शेषेलोपः इत्यनेन अन्त्यस्यैव लोपः यदि क्रियते यूय अम् इति भवति. इदानीं वस्तुतः अमिपूर्वः इति पूर्वरूपे कृते यूयम् इति रूपं सिद्ध्यति किन्तु अदन्तत्वात् अकारः अस्ति इत्यतः जसषि इत्यनेन कोत्सः जसषि अदन्तात् सर्वनाम्नः परस्य जसः षि स्यात्. इट् इस् नाट् औङ्गः, इट् इस् जसः, इट् इस् निश्चयस्य अदन्तात् सर्वनाम्नः परस्य जसः षि स्यात् इत्यनेन जस् प्रत्ययस्य स्थाने षि आदेशः करणीयः. सो यु शुड् रिमेम्बर् दिस् वास् ओरिजिनलि जस्, द जस् हस् बीन् रिप्लेस्ड् बै अम्, इट् इस् स्टिल् जस्. सो स्थानीयद्भावेन जस्त्वात् इट् शुड् केन् इट् बि रिप्लेस्ड् बै षि बिकास् दिस् इस् अदन्त अण्ड् दिस् इस् अ सर्वनाम, षि इति भवति वा इति प्रश्नः. सो नौ देर् इस् अ क्लाश् बिट्वीन् sorry, I think it was referring to the last slide. Just a second. Okay. इदानीं दशषि इति षि आदेशः करणीयो वा अभिपूर्वः इत्यनेन पूर्वरूपं करणीयं वा इति प्रश्नः. दशषि इति षि एव भवति. किमर्थं? परत्वात्. एकं तु परत्वम्, अभिपूर्वः इति षष्ठाध्यायस्य प्रथमपादे अस्ति, दशषि इति सप्तमाध्यायस्य प्रथमपादे. परत्वात् वर्णाद् अङ्गं बलीयः इति परिभाषा अपि विद्यते. वर्णनिमित्तं यत् कार्यं तदपेक्षया अङ्गकार्यस्य बलीयत्वं, दशषि इति अङ्गकार्यम्. अतः अमिपूर्वः इति पूर्वरूपं बाधते, इट् ओवर् रूल्स् अमिपूर्वः, दशषि वुड् हाव् टु अकर्. शेषे लोपः अन्त्यलोपः इति पक्षे दशषि इति प्राप्ते. सो देर् इस् अ चान्स् दट् यू शुड् एक्चुली डू दशषि एण्ड् रिप्लेस् अम् विथ् षि. हौ डू यू प्रिवेण्ट् इट् इस् अ क्वश्चन्. अङ्गकार्ये कृते पुनर्नाङ्गकार्यम् इति न भवति. देर् इस् वन् परिभाषा. इट् सेस् अङ्गकार्ये कृते वेन् यु डन् वन् अङ्गकार्य पुनः अङ्गकार्यं न भवति. परिभाषा टु सी वाट् इस् द मूल बिकास् वाट् इस् द उपपत्ति बिकास् देर् मेनि केसेस् वेर् वी डू मेनि अङ्गकार्यम्. इन् युष्मदस्मत् शब्द इट्सेल्फ् वी डू two angakaryas, we replace one with maparyanta and the other one with this. So what is the logic behind this paribhasha? There are three angakaryas which we do actually in every prakriya for yushma dasma. One is for pratyaya and two for prakriti. Okay. So how this paribhasha is said to be anitya. Okay. There is a reason for this paribhasha and there is also proof that this paribhasha is anitya. So wherever we do two or more angakaryas, we say because of this paribhasha anitya. But what is the actual logic behind this? The Vakshyakara says you have to go to Manorama and read it up, which I have not done, I'm sorry. But for now, let us accept this paribhasha. There is a paribhasha which says, Angakarya krate punaha na angakaryam. Once you have done one angakarya, you cannot do another angakarya. Angadhikara vihite karye sati. Angakarya is whatever is given in the adhikara of angasya. अङ्गाधिकारविहिते कार्ये सति पुनः अङ्गाधिकारविहितं कार्यं न भवति. प्रकृते वाट् यु डन् शेषलोपस्य अङ्गस्य प्रवृत्तत्वात् विधि शेषे लोपः विच् इस् डकार वद्विलीते तस्मिन् कृते अङ्गः शीभावः न भवति. पुनः अङ्गकार्यं नाम शीभावः रसशी इत्यपि अङ्गकार्यं तत् न भवति. सो वन् यु डन् एन् अङ्गकार्य another angakarya will not happen. So once we do sheshalopa, we cannot do shibhava. Is what he says. That is dikshitat samadhanam. Angakarya krute punarnangakaryam iti na bhavati. That is the first samadhana he gives. He also gives one more. So why do we need one more samadhana? Why is this not a satisfactory thing? Is what we see in the Bala Manorama, which I think we should take up in the next
Kula.
It is the Vadamana Ramakana case why the Samadhana is not satisfactory. The Paribhasha prohibits Purarangakarya for the same Pratyaya or the same unit. That is the thing. Here you are not doing it for the same. You are saying Sheshelopaha is one Angakarya which happens for the Prakriti and Jashasi is another Angakarya which happens for the Pratyaya. Okay. I mean, I understand the logic. If you say for the same part, if you cannot do it, it is fine. But that is not the case here. You are saying Sheshelopa is one Angakarya which is happening in the Prakriti and Jashasi is another Angakarya which is happening for the Pratyaya. Okay. It is not happening for the same unit. So, I have to look it up actually. What is the real thing of the Paribhasha? Anga is Anga. Esmat Pratyaya Vidhit Tadari Pratyayangam. Isyeva Angasya. This question. Angakarya is Angasya Ityadhikare Vihitam Yaskaryam Tad Angakarya. One thing which Balavanamakara says is that he'll see, okay. The next class will see why Balavanamakara, I mean, why this Samadhana will not hold good. For now, the question is, Sheshenopaha iti Antyalopaha iti Pakshe, Dakarasya Lope Krate, Adam Tatvata Jasashi iti Pratyasya sthane shiyadeshaha bhavati va iti prasnaha na bhavati iti uttaram. Katham na bhavati iti cheta. Ekam tu anaya paribhashaya na bhavati iti rikshitaha. Angakarya krute punarna angakaryam iti paribhashaya na bhavati iti ekam samadhanam. Anyaravi samadhanam asti. Kimattam idam samadhanam na surasam iti yukva. Anya samadhanam kim iti pashyamaha. ఏనాక్షరతమాం నాయం అధిగమ్య మహేశ్వరాత్ కృష్ణం వ్యాకరణం ప్రొక్తం తస్మై పాణినేయే నమః వాక్యకారంబర ఋషిం హర్షకారం పతంజలిం పాణినిం సూత్రకారం చ ప్రణదోస్మి నిత్రయం నిత్రయం నమస్కృత్య తదు శ్రీశ్వరి భావ్యత వైయాకరణ సిద్ధాంత కౌలీయం విదశ్యతే